ऊर्ध्वपुण्ड्रध्यानश्लोकाः ललाटे सततम् देव्या श्रियासह विराजितम् चतुश्चक्रम् नमस्यामि केशवम् कनकप्रभम् अमृतोद्भवया देव्या समाश्लिष्टमथोदरे नारायणम् घनश्यामम् चतुःशङ्खम् नमाम्यहम् नित्यम् कमलयाश्लिष्टम् हृदये करुणाम्बुधिम् माधवम् मणिभङ्गाभम् चिन्तयामि चतुर्गदम् देव्या च चन्द्रशोभिन्या मम कण्ठे विराजितम् चन्द्रभासम् चतुःशार्ङ्गम् गोविन्दमभिसंश्रये विष्णुपत्न्याख्यया देव्या कुक्षौ दक्षिणपार्श्वगम् विष्णुम् चतुर्हलम् वन्दे पद्मकिञ्जल्कसन्निभम् वैष्णवी संज्ञया देव्या कलितम् दक्षिणे भुजे चतुर्मुसलमब्जाभम् संश्रये मधुसूदनम् कण्ठस्य दक्षिणे पार्श्वे वरारोहाधिपम् प्रभुम् अग्निवर्णम् चतुःखड्गम् भावयामि त्रिविक्रमम् हरिवल्लभया देव्या वामकुक्षौ स्थितम् हरिम् वामनम् बालसूर्याभम् चतुर्वज्रम् विभावये वामबाहौ महाबाहुम् शार्ङ्गिण्याः पतिमव्ययम् श्रीधरम् पुण्डरीकाभम् चतुःपट्टम् समाश्रये देवदेविकया देव्या वामकण्ठे विभासितम् चतुर्मुद्गरमभ्येमि ऋषिकेशम् तटित्प्रभम् कटिमध्यगया देव्या महालक्ष्म्या विराजितम् पञ्चायुधम् पद्मनाभम् प्रणमाम्यर्करोचिषम् काकुते सुरसुन्दर्याः पतिमद्भुतरूपिणम् दामोदरम् चतुःपाशम् इन्द्रकोपनिभम् भजे सर्वेषामखिलाभीष्ट फलदाश्लिष्टविग्रहम् वासुदेवमुपासेहम् पूर्णेन्द्वयुतसन्निभम्।